ओम नमो भगवते वासुदेवाय। अथ षट्सप्ततितमोऽध्यायः। श्रीशुक उवाच। अथान्यदपि कृष्णस्य शृणुकर्माद्भुतं नृप क्रीडानरशरीरस्य यथा सौभपतिर्हतः शिशुपालसकः साल्वो रुक्मिण्युद्वाह आगतः यतुभिर्निर्जितः सङ्ख्ये जरासन्धादयस्तथा। साल्वः प्रतिज्ञामकरोत् शृण्वतां सर्वभूभुजाम् अयादवीं क्ष्मां करिष्ये पौरुषं मम पश्यत इति मूढः प्रतिज्ञाय देवं पशुपतिं प्रभुम् आराधयामास नृप पांशुमुष्टिं सकृत् ग्रसन्। संवत्सरान्ते भगवानाशुतोष उमापतिः वरेणच्छन्दयामास साल्वं शरणमागतम् देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् अभेद्यं कामगं वव्रे सयानं वृष्णिभीषणम् तथेति गिरिशादिष्टो मयः परपुरञ्जयः पुरं निर्माय साल्वाय प्रादात् सौभमयस्मयम् स लब्ध्वा कामगं यानं तमोधाम दुरासदम् ययौ द्वारवतीं साल्वो वैरं वृष्णिकृतं स्मरन् निरुध्य सेनया साल्वो महत्या भरतर्षभ पुरीं बभञ्जोपवनान्युद्यानानि च सर्वशः स गोपुराणि द्वाराणि प्रासादाट्टालतोलिकाः विहारान् स विमानाग्र्यान् निपेतुः शस्त्रवृष्टयः शिलाद्रुमाश्चाशनयः सर्पा आसारशर्कराः प्रचण्डश्चक्रवातोऽभूत् रजसाच्छादितादिशः इत्यर्ज्यमाना सौभेन कृष्णस्य नगरीभृशम् नाभ्यपद्यत सम्राजन् स्त्रिपुरेण यथा मही प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः मा भैष्टेत्यभ्यथाद् वीरो रथारूढो महायशाः सात्यकिश्चारुदेष्णश्च साम्बो क्रूरः सहानुजः हार्दिक्यो भानुविन्दश्च गतश्च शुकसारणौ अपरे च महेश्वासा रथयूथपयूथपाः निर्ययुर्दंशिता गुप्ता रथे भाष्वपदातिभिः ततः प्रववृते युद्धं साल्वानां यदुभिः सह यथा सुराणां विबुधैस्तुमुलं लोमहर्षणम् ताश्च सौभपतेर्माया दिव्यास्त्रैरुक्मिणी सुतः क्षणेन नाशयामास नैषं तम इवोष्णगुः विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयो मुखैः शाल्वस्य ध्वजनीपालं शरैः सन्नतपर्वभिः शतेनाताडयच्छाल्वमैकैकेनास्य सैनिकान् दशभिर्दशभिर्नेत्रीन् वाहनानि त्रिभिस्त्रिभिः तदद्भुतं महत्कर्म प्रद्युम्नस्य महात्मनः दृष्ट्वा तं पूजयामासुः सर्वे स्वपरसैनिकाः बहुरूपैकरूपं तद्दृश्यते न च दृश्यते मायामयं मयकृतं दुर्विभाव्यं परैरभूत् क्वचिद् भूमौ क्वचिद् व्योम्नि गिरिमूर्ध्नि जले क्वचित् अलातचक्रवद्भ्राम्यत् सौभं तद्दुरवस्थितं यत्र यत्रोपलक्ष्येत स सौभः सः सैनिकः शाल्वस्ततस्ततो मुञ्चन् शरान् सात्वतयूथपाः शरैरग्न्यर्कसंस्पर्शैरासीविषदुरासदैः पीड्यमानपुरानीकः साल्वो मुह्यत्परेदितैः शाल्वानीकपशस्त्रौघैर्वृष्णिवीराभृशार्जिताः न तत्यजूरणं स्वं स्वं लोकद्वयजिगीषवः शाल्वामात्योद्युमान्नाम प्रद्युम्नं प्राक्प्रपीडितः आसाद्य गदया मौर्व्या व्याहत्य व्यनदद्बली प्रद्युम्नं गदया शीर्ण वक्षःस्थलमरिन्दमम् अपोवाहरणात् सूतो धर्मविद्दारुकात्मजः लब्धसंज्ञो मुहूर्तेन कार्ष्णिः सारथिमब्रवीत् अहो असाध्विदं सूत यद्रणान्मेपसर्पणम् न यदूनां कुले जातः श्रूयते रणविच्युतः विना मत्क्लीबचित्तेन सूतेन प्राप्तकिल्बिषात् किं नु वक्ष्येऽपि सङ्गम्य पितरौ रामकेशवौ युद्धात् सम्यगपक्रान्तः पृष्टस्तत्रात्मनः क्षमम् व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृजामयः क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां वृधे सारथिरुवाच धर्मं विजानता युष्मन् कृतमेतन्मया विभो सूतकृच्छ्रगतं रक्षेत् रथिनं सारथिं रथि एतद्विदित्वा तु भवान् मया पोवाहितो रणात् उपसृष्टः परेणेति मूर्छितो गदया हतः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे शाल्वयुद्धे षट्सप्ततितमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।